Namo Arihantaram. Namo Siddhaya. Namo Namo Vachayanam. Namo Loe Savasaunam. Esu Panchanamukkaro Savap Pavapanasanu Mangalananche Savvesin Padhamam Havai Mangalam.
Buddhya vinapi vibhudarchita pada pita
విగత శక్తిరపి ప్రవృత్తః శిశుః పరిపాలనార్థం నాపేతి కిం నిజ శిశుః పరిపాలనార్థం అల్పశ్రుతం శ్రుతవతాం పరిహాసధామ తద్భక్తిరేవ ముఖరీ కురుతే బలాన్ మాం యత్ కోకిలః కిల మధో మధురం విరోతి తత్ చారుచూత కలికా వికరై కహేతుః తత్ చారుచూత కలికా దృష్ట్వా భవంతమనిమేష ರಾಗ ರುಚಿಭಿ ಪರಮಾಣು ವಿಶ್ವಂ ನಿರ್ಮಾಪಿತ ಶ್ರೀಭುವನೈ ಕಲಲಾಮ ಭೂತ ತಾವಂತ ಏವ ಖಲು ತೇ ಪ್ರಣವ ಪೃಥಿವ್ಯಾಂ ಯತ್ತೇ ಸಮಾನಮ ಪರಂ ನಹಿ ರೂಪಮಸ್ತಿ ಯತ್ತೇ ಸಮಾನಮ ಪರಂ ನಹಿ ರೂಪಮಸ್ತಿ ವಕ್ರಂ ಕ್ವತೇ ಸುರನರೋ ರಗನೇತ್ರಹಾರಿ ನಿಶೇಷ ನಿರ್ಜಿತ ಜಗತ್ ತ್ರಿತಯೋಪಮಾನಂ ಬಿಂಬಂ ಕಲಂಕ ಮಲಿನಂ ಕ್ವನಿಷಾಕರಸ್ಯ ಯದ್ವಾಸರೇ ಭವತಿ ಪಾಂಡುಪಲಾಶಕಲ್ಪಂ ಯದ್ವಾಸರೆ ಭವತಿ ಪಾಂಡುಪಲಾಶಕಲ್ಪಂ ಸಂಪೂರ್ಣಮಂಡಲ ಶಶಾಂಕ ಚಿತ್ರಂ ಕಿಮತ್ರ ಯದಿ ತೇ ತ್ರಿದಶಾಂಗನಾಭಿರ್ ನೀತಂ ಮನಾಗಪಿ ಮನೋ ನ ವಿಕಾರ ಮಾರ್ಗಂ ಮುನಿಂದ್ರಲೋಕೇ ललित मोह महांधकारम गम्यम न राहु वदनस्य न वारिदाना विप्राजते तव मुखाब्जमनल्पकांति विद्योतय जगद पूर्व शशांक बिंबम विद्योतय जगद पूर्व शशांक बिंबम शर्वरीषु शशिनान्वि विवस्वतावा युष्मन्मुखेन्दु दलितेषु तमस्सुनाथ निष्पन्नशालि वनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनम् कार्यं कियज्जलधरैर्जलभारनम् रैः ज्ञानं यथा त्वयि विभाति कृतावकाशम् नैवं तथा हरिहरादिषु नायकेषु तेजस्पुरन्मणिषु याति यथा महत्त्वम् नैवं तु काच शकले किरणाकुलेऽपि नैवं तु काच शकले किरणाकुलेऽपि हृदयं त्वयि तोषमीति किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि कश्चिन्मनो हरति नाथ भवान्तरेऽपि शतशो जनयन्ति पुत्रान् नान्यासुतं त्वदुपमं जननी प्रसूता सर्वादिशो ददति भानि सहस्ररश्मिं राच्येव दिग् जनयति स्फुरदंशु जालम् राच्येव दिग् जनयति स्फुरदंशु जालम् त्वामां मनन्ति मुनयः परमं पुमांसम् आदित्यवर्णममलम् पुरस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम् नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थाः नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थाः विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुं योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं च वदन्ति सन्तः ज्ञानस्वरूपममलं प्रवदन्ति सन्तः बुद्धस्त्वमेव विबुधार्चित बुद्धिबोधात् त्वं शङ्करोऽसि भुवन शङ्करत्वात् दातासि धीर शिवमार्गमिधेर्विधानात् रक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि रक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि त्रिभुवनार्चि अरायनाथ तुभ्यं नमः क्षितितलामलभूषणाय तुभ्यं नमस्ति जगत परमेश्वराय तुभ्यं नमो जिन भवो दधिशोषणाय शोषणाय को विस्मयोत्र यदि नाम गुणैरशेषैः त्वं संश्रितो निरवकाशतया मुनीश दोषैरुपात्त विविधाश्रय जात गर्वैः स्वप्नान्तरेऽपि न कदाचिदपेक्षितोऽसि स्वप्नान्तरेऽपि न कदाचिदपेक्षितोऽसि शोकतरु संश्रितमुन्मयूखम् आभाति रूपममलं भवतो नितान्तम् स्पष्टोल्लसत् किरणमस्ततमो वितानम् बिम्बं रवेरिव पयोधर पार्श्ववर्ती बिम्बं रवेरिव पयोधर पार्श्ववर्ती सिंहासने मणिमयूखशिखा विचित्रे विभ्राजते तव वपुः कनकावदातम् बिम्बं वियज विलसदंशुलतावितानम् तुङ्गोदयाद्विशिरसीव सहस्ररश्मेः तुङ्गोदयाद्विशिरसीव सहस्ररश्मेः Thank you. ते तव वपुः कलधौतकान्तम् उच्चशशाङ्कशुचिनिर्झरवारिधारम् उच्चैस्तटं सुरगिरेरिवशातकुम्भम् उच्चैस्तटं सुरगिरेरिवशातकुम्भम् भानुकर प्रतापम् मुक्ता फल प्रकर जाल विवृद्ध शोभम् प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् प्रख्यापयत् त्रिजगतः परमेश्वरत्वम्
पवनों
लिङ्गं विश्वं जगत्सु निवसम्मुखमापतन्तं त्वन्नामकीर्तन जलं शमयत्य शेषम् त्वन्नामकीर्तन जलं शमयत्य शेषम्
कण्ठमुरुशृङ्खलवेष्टिताङ्गा
हन्निगड कोटिल कृष्ट जंघाः स्वयं विगत बंध भया भवन्ति सत्य स्वयं विगत बंध भया भवन्ति मत्त त्रिपींद्र मृगराज दवानलाही संग्राम वारिधि महोदर बंधनोत्थम तस्याशु नाशमुपयाति भयं भीव यस्तावकं सवमिमं मतिमानधीते यस्तावकं तवमिमं मतिमानधीते सूत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिरवर्ण विचित्र पुष्पां धत्ते जनो यैह कंठ गतां मजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः तं मानतुङ्गमवशा समुपैति लक्ष्मीः तारगव पूरित दिग्विभागः त्रैलोक्य लोक शुभ संगम भूति दक्षः सद्धर्म राज जय घोषण घोषकः सन् हे दुन्दुभिर्ध्वनति ते यशसः प्रवादी हे दुन्दुभिर्ध्वनति ते यशस प्रवादी पतति ते वच सांततिर्वा दिव्या दिव पतति ते वच सांततिर्वा शुंभ प्रभावलय भूरि विभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति रोद्यत्ति वाकर निरंतर भूरि संख्या दीप्ता जयत्यपि निशामपि सोम सौम्यां दीप्ता जयत् त्यपि निशामपि सोम सौम्यम् धर्मतत्त्वकथनैकपटोस्त्रिलोक्याः दिव्यध्वनिर्भवति ते विशदार्थ सर्व भाषा स्वभाव परिणाम गुणै प्रयोज्यः भाषा स्वभाव परिणाम गुणैर्प्रयोज्यः।